इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। भारतीय रिजर्व बैंक इत्याख्येन राष्ट्रीय महाकोषेन रेपो दराख्ये प्रतिदान परिमितौ सप्तम वारम् अपरिवर्तित स्थापयित्वा सार्ध षट् प्रतिशतमेव कृत अस्ति। वित्तकोषस्यास्य प्रमुखेण शक्तिकांत दासेन ह्यः द्वैमासिक मौद्रिक नीति विषयक घोषणायाम् उक्तं यत् अस्मिन् सप्त प्रतिशतम् उपभोक्तृ मूल्य सूचकांकश्च मुद्रास्फीतिः सार्ध चतुर् प्रतिशते स्थगनस्य संभावना वर्तते। तेनोक्तं यत् मार्च मासस्य एकोनत्रिंशत् दिनांकं यावत् भारतस्य वैदेशिक मुद्रागारः सर्वोच्चतमे स्थाने अस्ति, आहत्य च भण्डारेऽस्मिन् सार्ध षडाब्ज प्रायः कोटि डॉलरात्मकः राशि समाकलितोऽस्ति। भाजपेति दलस्य वरिष्ठ नेता प्रधानमन्त्री च नरेन्द्रमोदी अद्य प्रातः उत्तरप्रदेशस्य सहारनपुरे, अपराह्णे च राजस्थानस्य अजमेरनगरे जनसभां सम्बोधयिष्यति। तत्पश्चात् सायंकाले श्रीमोदी गाजियाबादनगरे एकस्मिन् नैर्वाचनिक कार्यक्रमे भागं भजिष्यति। यूपी मदरसा शिक्षा अधिनियमः 4,2,000 इत्येतत् असंवैधानिकं धर्मनिरपेक्षतायाः उल्लंघनं च इति इलाहाबाद उच्चन्यायालयेन प्रदत्तनिर्णयं सर्वोच्चन्यायालयेन स्थगितम्। मुख्यन्यायाधीशस्य डीवाई चन्द्रचूडस्य नेतृत्वे त्रयाणां न्यायाधीशानां पीठेन उच्चन्यायालयस्य आदेशं विरुद्ध प्रदत्तस्य याचिकायाः विषये केन्द्राय उत्तरप्रदेशसर्वकाराय च सूचनां प्रसारिता। इतः पूर्वं केन्द्रेण स्वीय याचिकायां प्रतिपादितम् आसीत् यत् निर्णये भारतीय संविधाने निहितस्य धर्मनिरपेक्षतायाः अवधारणायाः अशुद्धव्याख्या कृतास्ति। भारतर्तु विज्ञानविभागेन देशस्य पूर्वीय उपद्वीपीय क्षेत्रेषु अग्रिमं दिनं द्वयं यावत् उष्णलहरी भविष्यन्नीतिः अनुमानितास्ति। उष्णलहर्यः कर्नाटकस्य उत्तरी क्षेत्रेषु ओडिशा पश्चिमबंगाल झारखण्ड तेलंगाना आन्ध्रप्रदेश पुडुचेरी तेलंगाना राज्येषु च अद्य यावत् प्रविक्षन्ति। रविवासरपर्यन्तं देशस्य पूर्वोत्तर भागेषु वृष्ट्याः झंझावातस्य च अनुमानमस्ति। ऋतुविभागेन अरुणाचलप्रदेशे वृष्टिः हिमपातश्च अनुमानितः, अपि च अद्य महती वृष्टिः भविष्यति इति प्रोक्तम्। असममेघालयोः विविध भागेषु अतिवृष्टिः सम्भावितास्ति। सोमवासरं यावत् केरल तमिलनाडु कर्नाटक गोवा इत्यादिषु राज्येषु उष्णता तावदेव भविता। तत्रैव राष्ट्रिय राजधान्यां ऋतुविज्ञानविभागेन तीव्रवायुना सह अल्पवृष्टिः अपि सम्भावितास्ति इति उक्तम्। निर्वाचनायोगेन ह्यः तेषाम् एकादश राज्यानां नगर निगमायुक्तैः जनपदस्तरीयैः नैर्वाचनाधिकारिभिः सह उपवेशनं विहितम्, यत्र विगतेषु सामान्य निर्वाचनेषु अतिन्यूनं मतदानम् अभवत्। नवदिल्ल्यां मुख्य निर्वाचनायुक्तेन राजीव कुमारेण सह निर्वाचनायुक्तयोः ज्ञानेश कुमार सुखवीर सिंह संधु इत्यनयोः अध्यक्षतायाम् उपवेशनमिदम् आसीत्। उपवेशनावधौ मुख्य निर्वाचनायुक्तेन राजीव कुमारेण चयनित जनपदानां नगर निगमायुक्ताः जनपदस्तरीय नैर्वाचनिकाधिकारिणः निर्दिष्टाः यत्ते मतदातृ सहभागित्वं संवर्धयितुं व्यवहार परिवर्तनाय च मतकेन्द्रस्तरीय कार्ययोजना सज्जतां कुर्वन्तु इति वार्ताः।